ओम नमो भगवते वासुदेवाय। अथ तृतीयोऽध्यायः। राजोवाच निशम्य देव स्वभटोपवर्णितं प्रत्याह किंतान् प्रतिधर्मराजः एवं हताज्ञो विहतान्मुरारेर्नैदेशिकैर्यस्य वशे जनोऽयम् यमस्य देवस्य न दण्डभङ्गः कुतश्च नर्षेषु तपूर्व आसीत् एतन्मुने वृश्यति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम्। श्रीशुक उवाच भगवत्पुरुषैराजन् याम्याः प्रतिहतोद्यमाः पतिं विज्ञापयामासुर्यमं संयमनीपतिम् यमदूता ऊचुः कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः कस्य स्याताम् न वा कस्य मृत्युश्चामृतमेव वा किन्तु शास्त्री बहुत्वे स्याद्बहूनामिह कर्मिणाम् शास्त्रित्वमुपचारो हि यथा मण्डलवर्तिनाम् अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः शास्तादण्डधरो नृणां शुभाशुभविवेचनः तस्य ते विहतो दण्डो न लोके वर्तते अधुना चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता नीयमानं तवादेशादस्माभिर्यातना गृहान् व्यमोचयन् पातकिनं छित्त्वा पाशान् प्रथह्यते तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् नारायणेत्यपि हि ते मा भैरित्याययुर्द्रुतम्। श्रीशुक उवाच इति देवस्य आपृष्टः प्रजासंयमनो यमः प्रीतस्वदूतान् प्रत्याह स्मरन् पादाम्बुजम् हरेः। यम उवाच परो मदन्यो जगतश्च स्थूषश्च ओतम् प्रोतम् पतवत् यत्र विश्वम् यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवत् यस्य वशे च लोकः यो नामभिर्वाचि जनान्निजायाम् बदनाति तन्त्यामिव दामभिर्गाः यस्मै बलिं तैमे नाम कर्म निबन्धबद्धाश्चकिता वहन्ति अहं महेन्द्रो निरृतिः प्रचेता सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणा ससिद्धाः अन्ये च ये विश्वसृजो मरेशा भृग्वादयोस्पृष्टरजस्तमस्काः यस्येहितं न विदुःस्पृष्टमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये यं वै न गोभिर्मनसा सुभिर्वा हृदा गिरा वा सुभृतो विचक्षते आत्मानमन्तर्हृति सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः प्रायेण दूता इह वै मनोहराश्चरन्ति तद्रूपगुणस्वभावाः भूतानि विष्णो सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च धर्मं तु साक्षात् भगवत्प्रणीतं न वै विदुर्ऋषयो नापि देवाः न सिद्धमुख्या असुरा मनुष्याः कुतश्च विद्याधरचारणादयः स्वयंभोर्नारदः शम्भुः कुमारः कपिलो मनुः प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयं द्वादशैते विजानीमो धर्मं भागवतं भटाः गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वा मृतमश्नुते एतावानेव लोकेऽस्मिन् पुंसां धर्मः परस्मृतः भक्तियोगो भगवति तन्नामग्रहणादिभिः नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः अजामिलोऽपि येनैव मृत्युपाशादमुच्यत एतावतालमगनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्म नाम्नाम् विकृष्य पुत्रमघवान् यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् प्रायेण वेद तदिदं न महाजनोऽयं देव्या विमोहितमतिर्बतमाययालम् त्रय्यां जडीकृतमतिर्मधुपुष्पितायां वैतानिके महति कर्मणि युज्यमानः एवं विमृश्य सुधियो भगवत्यनन्ते सर्वात्मना विदधते खलु भावयोगम् ते मेन दण्डमर्हन्त्यथ यद्यमीषां स्यात्पातकं तदपि हन्त्युरुगाय वादः ते देवसिद्धपरिगीतपवित्रगाथा ये साधवः समदृशो भगवत्प्रपन्नाः तान्नोपसीदत हरेर्गदयाभिगुप्तान् नैषां वयं न च वयः प्रभवाम दण्डे तानानयध्वमसतो विमुखान् मुकुन्द पादारविन्दमकरन्दरसादजस्रम् निष्किञ्चनैः परमहंसकुलैरसज्ञैर्जुष्टाद् गृहे निरयवर्त्मनिबद्धतृष्णान् जिह्वानवक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम् कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतो कृतविष्णुकृत्यान् त तत्क्षम्यतां स भगवान् पुरुषः पुराणो नारायणः स्वपुरुषैर्यत सत्कृतं नः स्वानामहो न विदुषां रचिताञ्जलीनां क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहताम् महतामपि कौरव्य विध्यैकान्तिक निष्कृतिम् शृण्वताम् गृणताम् वीर्याण्युद्दामानि हरेर्मुहुः यथा सुजातया भक्त्या शुद्ध्येन्नात्मा वृतादिभिः कृष्णाङ्घ्रिपद्ममधुलिन्न पुनर्विसृष्ट मायागुणे सुरमते वृजिनावहेषु अन्यस्तु कामहत आत्मरजः प्रमार्ष्टोमीहेतकर्म यत एव रजः पुनः स्यात् इत्थम् स्वभर्तृगदितम् भगवन्महित्वम् संस्मृत्य विस्मितधियो यमकिङ्करास्ते नैवाच्युताश्रयजनम् प्रतिशङ्कमाना द्रष्टुम् च बिभ्यति ततः प्रभृति स्मराजन् इतिहासमिमम् गुह्यम् भगवान् कुम्भसम्भवः कथयामास मलय आसीनो हरिमर्चयन् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।